सर्वेभ्यो नमः. अस्माकं प्रवर्तमानविषयः अस्ति लङ्लकारः इत्युक्ते भूतकालरूपाणि इति. तत्र वयं भूतकालस्लङ्लकारस्य अभ्यासं कृतवन्तः, क्रियापदानां रूपं कीदृशम् इति सर्वं दृष्टवन्तः. किन्तु तत्र उपसर्गरहितक्रियापदानाम् अभ्यासः एव जातः इति कृत्वा इदानीम् उपसर्गसहितक्रियापदानां रूपाणि कीदृशानि इति पश्यामः. तत्र लङ्लकारस्य प्रथमतया लङ्लकारस्य रूपं कीदृशम् इति एकवारं पुनस्मरणं कुर्मः. तदनन्तरं विसर्ग उपसर्गसहित पदानां रूपं कीदृशम् इति चिन्तयामः. तत्र पुटसङ्ख्या 82 मध्ये तत्र छल् इति धातोः रूपाणि दत्तमस्ति. तत्र तद्दृष्ट्वा एकवारं पश्यामः. तत्र शोभा भगिनी, तत्र चलति इति क्रियापदस्य लङ्लकाररूपम्?
आम् महोदय. चल् धातोः अचलत्, अचलताम्, अचलन्, अचलः, अचलतम्, अचलत, अचलम्, अचलाव, अचलाम
इति अस्ति. धन्यवादः भगिनि. सर्वे स्मरन्ति खलु, तत्र तादृशे एव रूपं यदि तत्र पठति इति अस्ति चेत् तत्र किमस्ति? तत्र गीताञ्जलि भगिनी वदति वा पठति इति पठ् धातुः
लङ्लकार? अपठत्, अपठताम्, अपठन्, अपठः, अपठतम्, अपठत, अपठम्, अपठाव, अपठाम
इति. धन्यवादः भगिनी. अस्तु, तत् अस्ति लङ्लकाररूपं परस्मैपदीधातूनाम् अपि, तत्र आत्मनेपदीधातूनाम् अपि अस्ति किन्तु इदानीम् अस्तु. तत्र एतत् क्रियापदरूपम् अपि वयं नामपदरूपम् अपि दृष्टवन्तः. तत्र पट् इति पठति इति तस्य भूतकाल अर्थे नामपदं पठितवान् इति अस्ति. तत्र मधुसूदन महोदय स्मरति वा पठितवान् इति एकवचने अस्ति, द्विवचने किम् अस्ति? इति समीचीनं महोदय. इति स्त्रीलिङ्गं, स्त्रीलिङ्गे अपि जानाति वा?
पठितवती, पठितवत्यौ, पठितवत्यः.
समीचीनम् अस्ति महोदय, धन्यवादाः. अस्तु, इदानीं तत्र वयं अस्माकं कार्य अद्यतनकार्य किम् इत्युक्ते, तत्र उपसर्ग अस्ति चेत् किं करणीयम् इति. अत्र उपसर्ग इत्युक्ते तत्र इदानीं पुटसङ्ख्या 90 इति पश्यामः, पेज् 90. तत्र उपसर्गाः इति विषयः अस्ति. तत्र गतवर्गे नियमाः अपि दृष्टवन्तः वयं, किन्तु पुनः एकवारं तत्र उपसर्गः इति, तत्र गच्छति इति क्रियापदं जानीमः, आगच्छति इति क्रियापदमपि जानीमः. तत्र आ इति उपसर्गः. तत्र कोष्टके तत्र उदाहरणं दत्तमस्ति, धावति इति जानीमः, तत्र अनुधावति, तत्र अनु इति उपसर्गः अस्ति. तत्र उपसर्ग अस्ति चेत् उपसर्गसहितक्रियापदानां लङ्लकाररूपम् अपि, तत्र तवत् रूपं, कृतवान् इति तादृशरूपं कीदृशम् इति इदानीं पश्यामः. तत्र कार्यं किम् अस्ति इत्युक्ते, प्रथमतया तत्र एकवारम् उपसर्गः सहितवाक्यानि परिशीलयामः, तदनन्तरं तेषां लङ्लकाररूपं तस्य चिन्तनं कुर्मः. अस्तु, प्रथमतया तत्र 90 पुटे यानि वाक्यानि सन्ति तत् एकवारं पठामः. अस्तु, तर्हि तत्र उषा भगिनी आरम्भं करोति वा? तत्र भीष्मः,
आं महोदय, भीष्मः गङ्गां दृष्ट्वा आगच्छति,
तत्र उपसर्ग अस्ति, हा इति उपसर्ग अस्ति, अस्तु समीचीनं भगिनि, अस्तु तत्र आगच्छति इति अस्ति चेत् तत्र गच्छति अस्ति चेत् गतवान् इति रूपं भवति, इदानीम् आगच्छति अस्ति चेत् कीदृशरूपं भवति?
आगतवान्,
आगतवान् इति, समीचीनं भगिनि, अपि गच्छति इति गतवती इति रूपं भवति, इदानीम् आगच्छति इति तस्य स्त्रीलिङ्गरूपं किं भवति?
आगतवती,
आगतवती इति भवति, समीचीनं भगिनि, अस्तु अग्रे शुभा भगिनी अग्रिमम्।
एकलव्यः द्रोणाचार्यं प्रणमति, प्र इति उपसर्गः,
इति उपसर्गः, अस्तु तत्र नमति इति तस्य तवत् रूपं स्मरति वा भगिनि? तत्र
नमितवान्,
तत्र कुत्र अस्ति तत्र नमितवान् इति न, तत्र पुटसङ्ख्या 79 पश्यतु भगिनि, तत्र कोष्टकम् अस्ति, एतत् कृतवन्तः, नतवान् इति अस्ति मध्ये, नमति इति क्रियापदं दत्तमस्ति खलु मध्ये 79 पुटसङ्ख्या मध्ये, हसति इति तदनन्तरं नमति, अत्र रूपम् अस्ति
नतवान्
इति, हा इदानीं नमति इति तस्य रूपं नतवान् इति अस्ति, अतः प्रणमति इति
प्रणतवान्, प्रणीतवान्
वा? हा तत्र हा समीचीनं, प्रणतवान् इति, प्रणतवान्, हा प्रणतवान्, तत्र प्र इति उपसर्गः तत्र भवति, नतवान् प्रणतवान्, तत्र नत्वं भवति, नकारस्य स्थाने न इति आगच्छति, तत्र ऋकारः अस्ति इति कृत्वा, समीचीनम्। अपि स्त्रीलिङ्गे किम् अस्ति भगिनि? नतवान् इति पुल्लिङ्गे नतवती, इदानीं प्रणमति
प्रणतवती
इति, समीचीनं, हा तत्र यद् रूपम् अस्ति उपसर्गरहितक्रियापदस्य यद् रूपम् अस्ति तवत् रूपं, तत्र केवलम् उपसर्गं योजयित्वा वक्तुं शक्नुमः, तदेव रूपम्, अस्तु समीचीनं भगिनि, अस्तु अग्रे रघुपतिमहोदय।
आम् महोदय, कृष्णस्य भक्ताः न प्रणश्यन्ति, प्र उपसर्ग नश्यन्ति इति अस्ति, नष्टवान् वा तत्र
इति चिन्तयामि,
नष्टवान् यथा इष्टवान् इच्छति इष्टवान्
हा इति नष्टवान् इति मन्ये महोदय,
न नष्टवान् न नष्टवन्तः,
अत्र तत्र प्र इति उपसर्ग अस्ति, अतः
सारि प्रणश् प्र योग नश्यन्ति प्रणश्यन्ति,
हा अतः रूपं कीदृशं तवत् रूपं?
प्रणष्टवन्तः, प्रणष्टवन्तः,
प्रणष्टवान् प्रणष्टवन्तः, स्त्रीलिङ्गे
प्रणष्टवत्यः इति भवति,
प्रणष्टवत्यः, हा बहुवचने, समीचीनं महोदय, हा यद्रूपम् अस्ति तत्र तदेव रूपं, किन्तु उपसर्ग स्थापयामः तावदेव, अस्तु हा तत्र अस्तु, प्रणमति तदनन्तरं प्रणश्यति, इदानीम् अग्रिमं शोभा भगिनी अग्रिमं करोति वा?
आं महोदय, तत्र अर्जुनस्य मुखं परिशुष्यति, परि उपसर्ग योगः शुष्यति परिशुष्यति,
न जानीमः खलु शुष्कवान् इति,
शुष्कवान् अस्ति वा, परिशुष्कवान्
प्रायशः अस्ति भगिनि, अस्तु अस्तु, यदि जानीमः वदामः, नो चेत् चिन्ता मास्तु,
तत्र
अस्तु चिन्ता मास्तु भगिनि, हा केवलं तत्र कार्यं किम् इति तस्य ज्ञानं, तत्र परि इति तदनन्तरं शुष्यति इति तस्य रूपं जानीमश्चेत् परि इति योजनीयम् अस्ति इति तावदेव, अस्तु अस्तु, तर्हि अग्रे मधुसूदन महोदय अग्रिमम्.
महोदय किञ्चित् समयः आवश्यकम्.
अस्तु अस्तु महोदय, अस्तु अस्तु अस्तु. तर्हि गीताञ्जलि भगिनि.
कामात् क्रोधभिजायते अभि इति उपसर्ग अभिजायते जायते इत्युक्ते.
अस्तु, जायते जायते इति
न जानाति महोदय. अपि ज्ञातवान् अस्ति वा?
गतवान् वा?
अपि
जायते
जायते
अस्ति. जायते
अभिज्ञायते अभिज्ञातवान्
तत् ज्ञायतु, किन्तु अत्र जाय इति स्थिति अस्ति. अभिजितवान् अथवा किमपि अस्ति इति. हा अस्तु, तर्हि अस्तु, इदानीं वयं तस्य अभ्यासस्य परिवर्तनं कुर्मः. प्रथमतया किम् उपसर्गस्य उपसर्गः कः इति वदामः, तदनन्तरं वयं किं कुर्मः, तत्र उपसर्गः इदानीं सर्वे उक्तवन्तः खलु, अत्र उषा भगिनी, गीता भगिनी, शुभा भगिनी, शोभा भगिनी, वेणुगोपाल् महोदय इदानीं नास्ति इति मन्ये. अस्तु, रघुपति महोदय, मधुसूदन महोदय, अस्तु. हा, अतः वयम् एतत् कुर्मः. तत्र कार्यद्वयम् अत्र अस्ति. एकमस्ति नामपदरूपं, पठितवान्, पठति इति धातोः पठितवान् पठितवती इति रूपम्, अपि अपठत् इति रूपं, तदपि दृष्टवन्तः. अतः वयं किं कुर्मः, यद् वयं जानीमः तदेव कुर्मः. तत्र पश्यामः, तत्र प्रायशः यद् अत्र दत्तमस्ति रक्तवर्णे, तद् सर्वं वयं प्रायशः तस्य तवत् रूपं न जानीमः इति मन्ये, किन्तु चिन्ता मास्तु. तत्र वयम् एतत् कुर्मः, तत्र अग्रिमपुटे तत्र एतत् स्वीकुर्मः. तत्र किं, हा, तत्र अग्रिमपुटे यत् आगच्छति इति स्वीकुर्मः. अपि अनुसरति इति, अनुसरति इति स्वीकुर्मः. अपि अनुवदति इति स्वीकुर्मः. अनुधावति, अपि किं, विलिखति, एतत् अपि विहरति इति स्वीकुर्मः इति. एतत् एतत् पर्याप्तम् इति मन्ये. अस्तु, तर्हि गच्छति इति, तत्र उपसर्गः अस्ति चेत् आगच्छति इति. गच्छति इति रूपं, तस्य लङ्लकाररूपं किम् अस्ति? अगच्छत्, अगच्छताम्, अगच्छन्. हा, अपि मध्यमपुरुषे हा, अस्तु. इदानीं तत्र इदानीम् आ इति उपसर्गः अस्ति, अतः तत्र केवलम् आ इति उपसर्ग गच्छति इति धातोः क्रियापदस्य लङ्लकाररूपं कृत्वा पुनः आ इति स्थापनीयमस्ति. अतः किम् इदानीं लङ्लकाररूपम् आगच्छति इति क्रियापदस्य लङ्लकाररूपं किं भवति? आगच्छत्, आगच्छताम्,
आगच्छताम्,
आगच्छन्, आगच्छः,
आगच्छतम्,
आगच्छतम्, आगच्छत, आगच्छम्, आगच्छाम इति अस्ति. समीचीनम्. अस्तु, इदानीं तदेव तत्र आनयति अपि, तत्र नयति इति क्रियापदस्य लङ्लकरूपं किम् अस्ति?
अनयत्
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 अनयताम्
अनयताम् अनयम्
अनयम्
अनयाव अनयाम इदानीम् आनयति इति तत्र आ इति उपसर्ग अस्ति अतः तत्र ह्रस्व अकारः यदस्ति आरम्भे तदिदानीं दीर्घ आकारः भवति तावदेव अतः आनयत् इति भवति अतः आ इति उपसर्गः अस्ति चेत् बहु सुलभः अस्ति तत्र केवलम् आकारः अत्र अकारः किम् अस्ति तत्र अकारः उपसर्गः अपि अस्ति आकारः उपसर्गः अपि अस्ति अपि क्रियापदे तत्र ग इति अस्ति अतः तत्र किं भवति तत्र अकारः तत्र एतत् अचलत् इति अगच्छत् इति रूपं भवति लङ्लकारे तत्र अकारः अपि एतत् रूपं तत्र दीर्घ अकारः एव तिष्ठति एतत् सुलभरूपं इदानीम् अग्रिमं पश्यामः तत्र किमस्ति हा इदानीम् उत्तिष्ठति इति स्वीकुर्मः तत्र तिष्ठति इति हा तस्य रूपं किम् इति हा तत्र हा गीताञ्जलि भगिनि तिष्ठति इति तस्य प्रथमपुरुषरूपं वदतु भगिनि लङ्लकारे
अतिष्ठत् अतिष्ठताम् अतिष्ठन्
अतिष्ठन् इति समीचीनं हा इदानीं तत्र उत् इति अस्ति चेत् उत् तिष्ठति अस्ति चेत् तत्र यद् भवती उक्तवती तदेव रूपं स्वीकृत्य तस्य आरम्भे उत् इति स्थापनीयम् अस्ति अतः उत् उत् योगः अतिष्ठत्
आम् महोदय अयोगः उत् योगः
न अयोगः न अतः यद् रूपं तिष्ठति इति तस्य परिव लङ्लकरूपं किम् अस्ति अतिष्ठत्
अतिष्ठत्
हा इदानीं तस्य आरम्भे उत् इति स्थापनीयम् उत् योगः अतिष्ठत्
उततिष्ठत्
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 हा उततिष्ठत् किम् अस्ति लङ्लकाररूपस्य तस्य निर्माणं कीदृशम् इत्युक्ते उपसर्गः अस्ति चेत् प्रथमतया उपसर्गः निष्कासयामः तदनन्तरं लङ्लकाररूपं कुर्मः पुनः उपसर्गः आरम्भे स्थापयामः अतः उत् योगः तिष्ठति इति यदस्ति क्रियापदं तत्र उत् इति त्यजामः तिष्ठति इति अस्ति तिष्ठति इति तत् स्वीकृत्य अतिष्ठत् इति कुर्मः तदनन्तरम् उत् पुनः स्थापयामः अतः उततिष्ठत् इति भवति उततिष्ठत् इति एतत् कार्यम् उततिष्ठत् केवलम् एतत् कार्यम् अपि उततिष्ठत् उततिष्ठताम् उततिष्ठन् इति केवलं प्रथमपुरुषे प्रथमतया तत् पश्यामः इदानीं तत्र शुभा भगिनी इदानीम् अनुसरति इति तत्र किं कार्यं केवलं प्रथमपुरुषे एकवचने रूपं कीदृशं भवति किमर्थम् इति वदतु भगिनि
अनुयोगः असरत् भवति
हा सरति इति स्थाने तद् असरत् इति भवति हा इदानीं
योगः असरत्
तत्र अनुकारः वदतु भगिनि हा
अनु असरत् वा
तत्र सन्धि भवति अन्वसरत् इति भवति
अन्वसरत् अन्वसरत् अन्वसरताम् अन्वसरन्
हा इति तत्र सन्धिकार्यः अस्ति तत्र किन्तु उदाहरणरूपेण तत्र पश्यामः एतत् प्रायशः एतादृशं रूपाणि तत्र कुत्र हा इदानीं तत्र पेज् 96 पश्यामः. तत्र अनु प्लस् अकरोत् अन्वकरोत् इति तत्र वकारः आगच्छति. अन्वकरोत् इति अस्तु तदेव उकारः योगः अकारः तत्र वकारः आगच्छति. तत्र अनु अस्ति चेत् मनसि स्थापयामः वकारः आगच्छति इति. अस्तु इदानीं रघुपतिमहोदय तत्र अनुधावति इति
अनुधावति अनुधावति अस्तु अधावति अस्ति अन्वधावति इति भवति
अनुयोगः. इदानीम् अनुयोगः अधावत् किं भवति
अन्वधावत् पद उकार वकार भवति
अन्वधावत् अन्वधावत् अन्वधावताम् अन्वधावन्
अन्वधावन्
इति रूपम् अस्तु अनु इति. इदानीं वि इति उपसर्ग तदपि स्वीकुर्मः. एतद् उदाहरण एतानि उदाहरणानि स्वीकृत्य किञ्चित् अभ्यासं कुर्मः इदानीं तत्र समीचीनम् अस्तु. मधुसूदन महोदय
नमस्कारः. महोदय
जयन्त महोदय नमस्कारः.
क्षम्यतां महोदय अहं विलम्बेन आगतम्.
चिन्ता मास्तु महोदय चिन्ता मास्तु. तत्र उपसर्ग सहितक्रियापदानां लग्लकाररूपम् इति कुर्मः इति विषयः पेज् 90-91 तत्र स्मः. मधुसूदन महोदय तत्र हरति इति तस्य लङ्लकरूपं जानाति वा? अहरत् इति. इदानीं वि इति अस्ति चेत् तत्र विहरति इति तस्य लङ्लकरूपं किम् अस्ति इत्युक्ते वि योगः रति हरति इति स्थाने अहरत् इति भवति. इदानीं वि योगः अहरत् तत् किं भवति तत्र व्यहरत् इति भवति महोदय. व्यहरत् यकारः आगच्छति. वि अस्ति चेत् यकारः आगच्छति. अनु अस्ति चेत् वकारः आगच्छति. तत् सन्धिविषयः अस्ति अग्रे पश्यामः इदानीं मास्तु. किन्तु केवलं मनसि स्थापयामः. अत्र पेज् 96 मध्ये कोष्टकम् अस्ति तत्र उदाहरणानि दत्तानि सन्ति. तत्र वि इति अस्ति चेत् तत्र वि योगः अलिखत् व्यलिखत् इति अस्ति. समीचीनं वा महोदय? इदानीं हरति इति किं भवति व्यहरत् व्यहरत् व्यहरतां व्यहरन् इति. अतः केवलं तत्र आ अपि उत् अनु अपि वि इति उपयुज्य तत्र तत्र तद्रूपम् इदानीं तत्र पश्यामः. तत्र प्र अस्ति इति चेदपि प्रायशः समीचीनमेव. अस्तु तत्र इदानीं किं कुर्मः. तत्र आगच्छति इति तस्य रूपं कृतवन्तः. उत्तिष्ठति इति तत् प्रायशः तत् कर्तुं शक्नुमः. तत्र अपि अनु इति अस्तु. तत्र अनुसरति इति तस्य इदानीं नवरूपाणि इदानीं तत् कर्तुं प्रयत्नं कुर्मः. इदानीम् अत्र शुभा भगिनी तत्र उत्तिष्ठति इति तत्र लङ्लकरूपं प्रथमपुरुषे एकवचने किं भवति भगिनि? इदानीं द्विवचने
नवरूपाणि
वदतु भगिनि.
उततिष्ठत् उततिष्ठताम् उततिष्ठन् उततिष्ठः उततिष्ठतम् उततिष्ठत उततिष्ठत उततिष्ठम् उततिष्ठाव उततिष्ठाम.
हा समीचीनं भगिनि, धन्यवादः. हा प्रथम प्रथमवारं कृतं खलु, अतः किञ्चित् क्लेशः आसीत्, किन्तु भगिनी बहु समीचीनतया कृतवती, धन्यवादः. अस्तु, इदानीं शोभा भगिनी, तत्र अनुसरति इति, हा तत्र अनुयोगः सरति, सरति इति स्थाने किं भवति भगिनि?
तत्र लङ्लकारे असरत् भवति.
इदानीम् अनुयोगः असरत्,
अनुयोगः असरत्, तत्र वकारः आगच्छति, अन्वसरत्.
अन्वसरत् समीचीनम्. इदानीं नवरूपाणि,
अन्वसरत्, अन्वसरताम्, अन्वसरन्, अन्वसरः, अन्वसरत्, अन्वसरतम्, अन्वसरत, अन्वसरम्, अन्वसराव, अन्वसराम
इति अस्ति भगिनि, समीचीनं. अस्तु, अग्रे गीताञ्जलि भगिनि, तत्र अनुधावति इति.
अनुयोगः अधावत्, अन्वधावत्, अन्वधावताम्, अन्वधावन्, अन्वधावः, अन्वधावतम्, अन्वधावत, अन्वधावम्, अन्वधाव, अन्वधाम.
अन्वधम् इति
अन्वधम्, अन्वधाव, अन्वधाम,
अन्वधावम्, अन्वधावम्, अन्वधावम्,
अन्वधावम्, अन्वधावम्,
अन्वधाव, अन्वधावाव, तत्र धाव इति
अपथम् अधावं महोदय, अधावम्, अन्वधावम्
अपि द्विवचने इदानीम्
अन्वधावम्, अन्वधाव, अन्वधा.
तत्र तत्र भगिनी, तत्र किम् अस्ति, तत्र अपठाव इति अस्ति खलु, तत्र भट् इति क्रियापदम् अथवा धातु अस्ति, तदनन्तरम् आव इति भवति. अत्र किम् अस्ति, धाव इति क्रियापद एव अस्ति, आव इति.
अस्तु महोदय, अन्वधावाव,
अन्वधावाव, अन्वधावाम इति
द्वित्वम् अस्ति महोदय.
तत्र आव, अहं चिन्तितवान् तत्र अनुवदति, तत्र अनुवदति इति अनुसरति, अस्तु अनुधावति इति प्रायशः, अस्तु अन्वधावाव, अन्वधावाम इति. अस्तु समीचीनं भगिनि, धन्यवादः. अस्तु, अन्ये के नूतनतया आगतवन्तः, नामानि उच्यताम्.
नमस्कारः,
शीतल भगिनि, नमस्कारः.
नमस्ते महोदय, अहं शैलजा अस्मि.
शैलजा भगिनी नमस्कारः.
नमस्कारः.
अस्तु, तर्हि तत्र वयं उपसर्गसहितक्रियापदानां लङ्लकाररूपम् इति तत्र तस्य अभ्यासं कुर्वन् स्मः, तत्र पेज् 90 मध्ये स्मः गीतासोपाने. अस्तु,
इदानीं महोदय,
अस्तु अस्तु, तर्हि तत्र अस्तु. इदानीं उषा भगिनी भवती वदति वा तत्र?
आम् आम् महोदय.
अनुवदति इति वयं न कृतवन्तः खलु?
अनुवदति,
तस्य लङ्लकरूपम् अनुयोगः,
अनुयोगः
अनुयोगः
अवदत् अन्ववदत्.
अन्ववदत्, तत्र वकारस्य द्वित्वं भवति. अन्ववदत्,
अन्ववदत्, अन्ववदत्, अन्ववदताम्, अन्वदन्,
अन्ववदन्, सर्वत्र वकारः द्विवारम् आगच्छति. अतः एव अहं चिन्तितवान् अनुवदति इति मास्तु, अनुधावति इति स्वीकुर्मः इति चिन्तितवान्, किन्तु तत्रापि द्वित्वम् आसीत्. हा अस्तु भगिनी, भवती केवलं प्रथमपुरुषे वदतु, अन्य कोऽपि मध्यमपुरुषे वदति.
अन्ववदत् अन्ववदताम् अन्ववदन्
त्रिवारं मास्तु, केवलं द्विवारम्, एकवारं मास्तु, त्रिवारं मास्तु, द्विवारमेव. अन्ववदन्
किञ्चित् स्टाप् करणीयम्.
अन्ववदन्
अन्ववदन्
हा इति समीचीनम्. अस्तु इदानीं रघुपति महोदय मध्यमपुरुषे भवती एव करोति वा? अस्तु करोतु करोतु.
अन्ववदः अन्ववदतम् अन्ववदत् अन्ववदम् अन्ववदाव अन्ववदाम.
हा केवलं तत्र उत्तमपुरुषे द्विवचने त्रिवारं वकारः अस्ति, अन्यत्र अन्यत्र केवलं द्विवारम्. अस्तु समीचीनं. हा इदानीं तत्र रघुपतिमहोदय इदानीं तत्र विलिखति इति तत्र उपसर्गः वि इति उपसर्गः
उपसर्गः अलिखत् इति भवति
अलिखत् इति भवति
व्यलिखत्
विलिखति इति क्रियापदस्य लङ्लकररूपं व्यलिखत् इति भवति. इदानीं नवरूपाणि
व्यलिखतां व्यलिखन् व्यलिखः व्यलिखतं व्यलिख सोरि व्यलिखत व्यलिखत् व्यलिखं व्यलिखवाव
व्यलिकाम इति समीचीनं. हा अस्तु अग्रे मधुसूदन महोदय इदानीं तत्र हरति विहरति इति वियोगः हरति तत्र हरति इति स्थाने किं भवति?
अहरत्
अहरत् इदानीं वियोग अहरत् किं भवति? व्यहरत्
व्यहरत्.
इदानीं नवरूपाणि पुटसङ्ख्या 82 दृष्ट्वा वदतु.
व्यहरत् व्यहरतां व्यहरन् व्यहरः व्यहरतं व्यहरत व्यहरं व्यहराव व्यहराम.
हा इति समीचीनं. हा पुनः एकवारं वदामि अस्माकं कार्यं किम् इति. तत्र उपसर्गसहित क्रियापदमस्ति चेत् तस्य लङ्लकरूपं कर्तुम् इच्छामः चेत् तत्र प्रथमतया उपसर्ग त्यजामः. यत् उपसर्गरहितक्रियापदमस्ति तस्य लङ्लकाररूपं कुर्मः, तदनन्तरं पुनः उपसर्गः आरम्भे स्थापयामः. तावदेव. हा अतः यदि वयं तत्र उपसर्गरहितक्रियापदस्य लङ्लकाररूपं जानीमः, उपसर्गसहितक्रियापदस्य लङ्लकाररूपमपि कर्तुं शक्नुमः. तत्र किमपि कोऽपि क्लेशः नास्ति, सुलभतया कर्तुं शक्नुमः. केवलं तत्र उकारः अस्ति चेत् वकारः यकारः इति यदस्ति तत् सन्धिविषयः अस्ति, किमर्थम् एतद् भवति इति अग्रे पश्यामः. इदानीं किं करणीयम् इति सुलभतया नियम कः नियमः इति सुलभतया ज्ञातुं शक्नुमः. अस्तु समीचीनं. तत्र विहरति इति कृतम्. अस्तु अग्रे तत्र जयन्त महोदय कर्तुम् इच्छति वा?
आं महोदय, आं प्रयत्नं करोतु.
अस्तु महोदय. तत्र इदानीं मधुसूदन महोदय विहरति इति तस्य लङ्लकरूपं कृतवान्. इदानीं विस्मरति इति स्मरति इति क्रियापदस्य लङ्लकरूपं किम् अस्ति? पठति इति अपठत् भवति, पठति इति अपठत् भवति, स्मरति इति तस्य लङ्लकरूपं किं भवति? अस्मरत् अस्मरत् इति. पुटसङ्ख्या 82 पश्यतु तत्र. इदानीं तत्र अस्मरत् इति तस्य पूर्वं वि इति वक्तव्यमस्ति, अतः वि योगः अस्मरत् किं भवति? व्यस्मरत् इति भवति.
व्यस्मरत्
उपसर्गः वि इति अस्ति, वि उपसर्गः योगः अस्मरत् व्यस्मरत् इति. इदानीं नवरूपाणि वदतु तत्र. व्यस्मरत्
व्यस्मरत् व्यस्मरतां व्यस्मरन् व्यस्मरः व्यस्मरतं व्यस्मरत व्यस्मरन् व्यस्मराव व्यस्मराम.
हा समीचीनं महोदय, हा समीचीनम् अस्तु. इदानीं तत्र अग्रे तत्र प्र इति पश्यामः, तस्य तत्र किं करणीयम् इति पश्यामः. तत्र इदानीं शीतल भगिनी वदति वा प्रहरति इति.
प्रयत्नं करोमि.
हा इदानीं प्रयोगः हरति, प्र इति उपसर्गः अस्ति, हरति इति क्रियापदस्य लङ्लकरूपं प्रथमपुरुषे एकवचने किम् अस्ति? अहरत्. इदानीं प्रयोगः अहरत् किं वहति, किं भवति? प्रयोगः अहरत्. शीतल भगिनी
न जानामि.
हा तत्र प्रयोगः अहरत् प्राहरत् इति भवति. प्राहरत् इति. इदानीं तत्र पुटसङ्ख्या 82 दृष्ट्वा अहरत् अहरताम् अहरन् इति यद्रूपम् अस्ति तत्र अचलन् अचलताम् इति अस्ति, अचलत् अचलताम् अचलन् इति अस्ति पुटसङ्ख्या 82 मध्ये. तद्दृष्ट्वा इदानीं हरति किं भवति? अहरत्. किन्तु प्रहरति किं भवति? प्राहरत्. इदानीं तद् कोष्टकं दृष्ट्वा वदतु भगिनि, प्राहरत् तदनन्तरं किम् अस्ति भवति द्विवचने?
प्राहरत् प्राहरतां प्राहरन् प्राहरः प्राहरतं प्राहरत प्राहरं प्राहराव प्राहराम.
हा समीचीनं भगिनि, हा तदेव अस्ति, हा तावदेव समीचीनं भगिनि. अस्तु वंशीसुधा भगिनी नमस्कारः.
नमस्ते महोदय, अहम् अधुना एव श्रुतवती परन्तु अधुना अपि वक्तुं शक्नोमि.
शक्नोति वा भगिनि?
शक्नोमि. इदानीन्तः अहं दूरवाण्यम् अस्मि, इदानीं सङ्गणके
तत्र तत्र प्रक्षालयति इति. तत्र क्षालयति इति किं भवति लङ्लकरूपं?
लङ्लकरूपम् अक्षालयत् इति भवति
भवति. इदानीं प्र इति उपसर्गः, प्रयोगः अक्षालयत् किं भवति?
प्राक्षालयत् इति.
हा प्राक्षालयत्
दीर्घसन्धि भवति.
हा सत् समीचीनं भगिनि. इदानीं नवरूपाणि वदतु.
आं महोदय, प्राक्षालयत् प्राक्षालतां प्राक्षालयन् प्राक्षालयः प्राक्षालतं प्राक्षालत.
यकारः अस्ति भगिनि, भगिनि तत्र यकारः अपि अस्ति खलु तत्र प्राक्षालयत्.
क्षम्यतां महोदय, प्राक्षालयत् प्राक्षालयतां प्राक्षालयत प्राक्षालयन् प्राक्षालयः
प्राक्षालयः
प्राक्षालयः प्राक्षालयतं प्राक्षालयत प्राक्षालयं प्राक्षालयाव प्राक्षालयाम.
हा समीचीनं भगिनि, किञ्चित् दीर्घः आसीत् क्षम्यतां. समीचीनं समीचीनम् आसीत् भगिनि. अस्तु समीचीनम्. अस्तु हा अग्रे तत्र तत्र क्षिपति इति न कृतवन्तः, निक्षिपति इति. हा तत्र शैलजा भगिनी कर्तुम् इच्छति वा तत्र?
पुटसङ्ख्या किं?
पुटसङ्ख्या तत्र 91 मध्ये एतत् अस्ति क्रियापदं, किन्तु रूपं 82 पुटसङ्ख्या मध्ये अस्ति. 91 मध्ये तत्र मध्यभागे तत्र निक्षिपति इति अस्ति.
अस्तु
तत्र नी अस्ति उपसर्गति
अक्षिपत् न्यक्षिपत्
समीचीनं. हा वदतु भगिनि. हा न्यक्षिपत्
न्यक्षिपत् न्यक्षिपथां न्यक्षिपन् न्यक्षिपः न्यक्षिपथं न्यक्षिपत नक्षिपाम
हा बहु समीचीनम् अस्ति भगिनि हा समीचीनम् अस्तु तर्हि कः एतावत् न कृतवान् अथवा कृतवती सर्वे कृतवन्तः वा अस्तु इदानीं तत्र इदानीम् अनु अथवा आ अथवा वि इति प्रा इति दृष्टवन्तः तत्र किं भवति यकारः अथवा वकारः इति तादृश एव भवति अस्तु समीचीनम् अस्ति इदानीं तत्र तस्य रूपं कीदृशम् इति दृष्टवन्तः इदानीं किं तत्र सर्वे कर्तुं शक्नुमः वा प्रायशः अस्तु हा अस्तु अतः वयम् एतत् कुर्मः तत्र हा अत्र एव स अग्रे एव यदस्ति तस्यापि अभ्यासं कुर्मः अस्मिन्नेव कोष्टके पेज् पुटसङ्ख्या 91 मध्ये एव इदानीं प्रहरति प्रक्षालति इति कृतवन्तः इदानीं परि इति भवति परिपालयति परिपृच्छति इति अस्ति तत्र एकनिमिष तस्य चिन्तनं कुर्मः पालयति इति किं तस्य लङ्लकररूपं किं भवति अपालयत् इति भवति इदानीं परियोगः अपालयत् किं भवति पर्यपालयत् इति तावदेव अस्तु तत्र इकारः अस्ति चेत् उपसर्गे अन्तिमवर्णः इकारः अस्ति चेत् उपसर्गे यकारः आगच्छति उपसर्गे उकारः अस्ति चेत् वकारः आगच्छति एतत् सामान्यनियमः तत्र अत्र किन्तु अग्रे पश्यामः यदि अन्यत् किमपि भवति न वा इति हा अस्तु किन्तु हा एतत् सामान्यरूपं किमर्थं सामान्यरूपम् इति वदामि इत्युक्ते तत्र क्रियापदस्य प्रथमवर्णः स्वरः अस्ति चेत् तत्र किञ्चित् क्लेशः भवति व्यञ्जनमस्ति चेत् क्लेशः नास्ति व्यञ्जनमस्ति चेत् क्रियापदस्य प्रथमवर्णः व्यञ्जनम् अस्ति चेत् गच्छति नयति सरति वदति तिष्ठति करोति इति तत्र अकारः तस्य पूर्वम् आगच्छति अपि उपसर्गः अस्ति चेत् तत्र यत् उक्तवन्तः तदेव भवति किन्तु यदि क्रियापदे प्रथमवर्णः स्वर अस्ति चेत् तत्र किञ्चित् क्लेशः भवति किन्तु इदानीं मास्तु अस्तु पर्यपालयत् इति उक्तवन्तः अस्तु तस्य नवरूपाणि वदामः तत्र उषा भगिनी वदति वा पर्यपालयत्
पर्यपालयत् पर्यपालयतां पर्यपालयन् पर्यपालयः पर्यपालयतं पर्यपालयत पर्यपालयं पर्यपालयाव पर्यपालयाम
इति तावदेव तावदेव भगिनि समीचीनं हा समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनी तत्र परिपृच्छति इति अस्ति तत्र पृच्छति इति तस्य लङ्लकरूपं किं भवति गीताञ्जलि भगिनी अस्ति वा अस्तु हा अस्तु तर्हि अशोभा भगिनी तत्र परिपृच्छति
आं महोदय तत्र पृच्छति अपृच्छत् इति भवति परियोगः अपृच्छत् पर्यपृच्छत् पर्यपृच्छत् पर्यपृच्छतां पर्यपृच्छतां पर्यपृच्छन् पर्यपृच्छः पर्यपृच्छतं पर्यपृच्छत पर्यपृच्छं पर्यपृच्छाव पर्यपृच्छाम
हा इति भवति समीचीनं भगिनि हा अस्तु इदानीं रघुपतिमहोदय तत्र अवगच्छति इति इदानीं
नूतनम्
अवगच्छति
अवगच्छति इति अगच्छति इति अवागच्छत् अवागच्छताम् अवागच्छन् अवागच्छः अवागच्छतम् अवागच्छत अवागच्छम् अवागच्छाव अवागच्छाम
हा समीचीनं महोदय अस्तु समीचीनम्. अस्तु तर्हि इदानीं मधुसूदन महोदय. हा इदानीं तत्र रघुपतिमहोदय गच्छति इति कृतवान्, गम् धातुः गच्छति अवगच्छति इति. इदानीं तदनन्तरं तस्य अवनमति इति अस्ति. नमति इति किं भवति तस्य लङ्लकररूपम्? अनमत् इति भवति. इदानीम् अवयोगः अनमत् अवा अवानमत्
अवानमत्
अवानमन् अवानमन्
अवानमः अवानमतम् अवानमत अवानम अवानमनवम्
अवानमम् समीचीनम्.
अवानमाम
समीचीनं महोदय, समीचीनं. हा अस्तु इदानीं तत्र जयन्त महोदय इदानीं तत्र अग्रिमं कुर्मः. तत्र वसति इति अस्ति, अधिवसति. वसति इति तस्य लङ्लकरूपं किम् अस्ति महोदय?
अवसत्.
अवसत्. इदानीं तस्य पूर्वः अधि इति उपसर्ग अस्ति. इकार अस्ति चेत् अस्ति चेत् यकारः. इकार अस्ति चेत् यकारः. यकारः अतः अद्यवसत्. अद्यवसत्. इदानीम् अद्यवसात्
अद्यवसत् अद्यवसताम् अद्यवसन् अद्यवसः अद्यवसतम् अद्यवसत अद्यवसम् अद्यवसाव अद्यवसाम.
हा इति अस्ति समीचीनं. हा अस्तु इदानीं समीचीनं महोदय. अस्तु हा इदानीं तप तत्र गृह्णाति संहरति तद् हा इदानीं किं कुर्मः तत्र बहु किमपि अस्ति किन्तु तत्र एतत् तत्र केवलं यद् एतदेव कुर्मश्चेत् तत्र किमपि बहु किं तदेव कुर्मः इति भवति. अतः किञ्चित् परिवर्तनं कृत्वा इदानीं वदामः. तत्र यद् कृतवन्तः तस्यैव इदानीं पुनः अभ्यासः. किन्तु तत्र वयं किं कुर्मः तत्र पठति गच्छति हरति नमति तुष्यति त्यजति इति अस्ति. हा अस्तु इदानीं किं कुर्मः अग्रिमपुटे पश्यामः. तत्र यदस्ति उपसर्गसहितक्रियापदं तत्र एतत् कुर्मः. अहं पुरुषः अपि वदामि, केवलं मध्यमपुरुषः वा अथवा प्रथमपुरुषः वा इति वदामि. तद् वदतु, तदेव रूपं वदतु, किन्तु तस्य पूर्वं केवलं क्रियापदं मास्तु. सः तत्र विलिखति अस्ति चेत् सः विलिखति. इदानीं तस्य लङ्लकररूपं किम् इति वदन्तु. अस्तु तत्र वंशीसुधा भगिनी, सः विलिखति इदानीं लङ्लकररूपं किम् अस्ति?
पुनरेकवारं वदतु महोदय.
सः विलिखति.
सः अविलिखत्. क्षम्यतां, विलिखति. व्यलिखत्.
सः व्यलिखत्. समीचीनं भगिनि, सः व्यलिखत्. हा शीतल भगिनि, तौ किमस्ति, किं भवति?
एकवारं वदतु महोदय.
सः लिखति, तौ सः विलिखति, तौ किं भवति? द्विवचने किं रूपम् अस्ति? सः लिखति, तौ
व्यलिखतां.
हा व्यलिखताम्. अस्तु समीचीनं. हा अस्तु इदानीं शैलजा भगिनी, तत्र बहुवचने किं भवति? सः विलिखति, लङ्लकररूपम् आसीत्, सः व्यलिखत् इदानीं तस्य बहुवचनरूपं किम् अस्ति?
सः न ते व्यलिखन्
के व्यलिखन् समीचीनं भगिनि हा ते व्यलिखन् समीचीनम् अस्तु इदानीम् उषा भगिनी तत्र त्वं विलिखसि
त्वं विलिखसि त्वं व्यलिखतः
व्यलिखः तः नास्ति एकवचने एकवचने मध्यमपुरुषे
व्यलिखः
व्यलिखः त्वं
व्यलिखः
समीचीनं भगिनि अस्तु इदानीं शुभा भगिनि त्वं युवां युवां किं भवति
युवां व्यलिखतम्
युवां व्यलिखतं समीचीनं शोभा भगिनि बहुवचने
यूयं व्यलिखत
यूयं व्यलिखत समीचीनं रघुपति महोदय इदानीं तत्र उत्तमपुरुषे एकवचनम् अहं विलिखामि विलिखामि इदानीं लट्लकारे इदानीं लङ्लकारे
अहं व्यलिखम्
अहं व्यलिखं समीचीनं हा अस्तु मधुसूदन महोदय तत्र आवां किं भवति आवां व्यलिखाव समीचीनं जयन्त महोदय वयं
वयं व्यलिखाम
हा समीचीनम् अस्तु समीचीनम् अस्तु हा इदानीं तत्र तत्र अग्रे हा पठति इति अस्ति हा तत्र प्रपठति इदानीं हा प्रपठति तत्र उषा भगिनी तत्र रामः प्रपठति
रामः प्रपठति प्रपठत् प्रापठत् रामः प्रापठत्
रामः प्रापठत् अस्तु हा इदानीं शुभा भगिनी रामौ
रामौ प्रापठतां
रामौ प्रापठतां समीचीनं शोभा भगिनी रामाः
रामाः प्रापठत् प्रापठन्
रामाः प्रापठन् समीचीनं रघुपति महोदय त्वं प्रपठसि
त्वं 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 प्रापठः
त्वं प्रापटः समीचीनं हा मधुसूदन महोदय युवां प्रापटतं पठतम् अपठतं युवाम् अपठतम् इदानीं प्रा उपसर्ग अस्ति प्रापटतम् समीचीनमस्ति महोदय इदानीं हा अस्तु जयन्त महोदय यूयं
यूयं यूयं प्रापटत
हा यूयं प्रापटत समीचीनं हा इदानीं शैलजा भगिनी अहम्
अहं पठामि
प्रापठम्
ओ प्रापठम्
हा प्रापठम् समीचीनं हा शीतल भगिनी आभां आवां प्रापठाव वंशीसुधा भगिनी
वयं प्रापठाम
वयं प्रापठाम समीचीनम् अस्तु गीताञ्जलि भगिनी अस्ति वा भगिनी न श्रूयते अस्तु इदानीं तत्र वंशीसुधा भगिनी भवती तत्र अनुगच्छति सीता अनुगच्छति लङ्लकरूपं
सीता अनुगच्छति अनुयोगः अगच्छत् अन्वगच्छत् सीता अन्वगच्छत्
सीता अन्वगच्छत् समीचीनं भगिनि इदानीं तत्र शुभा भगिनी द्विवचने सीता अन्वगच्छत्
सीते अन्वगच्छताम्
सीते अन्वगच्छताम् उषा भगिनी बहुवचने
सीता सीताः अन्वगच्छतन्
अन्वगच्छन् समीचीनं भगिनी अन्वगच्छन् समीचीनं इदानीं शोभा भगिनी मध्यमपुरुष एकवचने त्वं
त्वम् अन्वगच्छ
त्वम् अन्वगच्छ समीचीनं. रघुपति महोदय द्विवचने मध्यमपुरुषे
युवाम् अन्वगच्छतम्
अन्वगच्छतं समीचीनं. हा मधुसूदन महोदय इदानीं मध्यमपुरुषे बहुवचने
यूयम् अन्वगच्छत
अन्वगच्छत हा समीचीनं. हा जयन्त महोदय अहम्
अहम् अन्वगच्छम् अन्वगच्छम्
अहम् अन्वगच्छम् समीचीनं. शैलजा भगिनी आवाम्
आवाम् अन्वगच्छाव
अन्वगच्छाव समीचीनं. हा शीतल भगिनी वयम्
वयम् अन्वगच्छाम
अन्वगच्छाम समीचीनं. हा इदानीं तत्र प्रणमति इति कृतवन्तः परि आनेति परिहरति हा तत् स्वीकुर्मः परिहरति इति अस्ति तत् पश्यामः. तत्र रघुपतिमहोदय परिहरति हा तत्र किं कुर्मः इदानीं कविः परिहरति कविः परिहरति
कविः पर्यहरत्
कविः पर्यहरत् समीचीनं. हा इदानीं शोभा भगिनी द्विवचने कविः परिहरत् द्विवचने
परिहरत् कविः कवी कवी पर्यहरताम्
हा कवी पर्यहरताम् समीचीनम्. इदानीं शुभा भगिनी बहुवचने
कवयः पर्यहरन्
पर्यहरन् समीचीनम्. उषा भगिनी मध्यमपुरुषे इदानीं
त्वं पर्यहरः
त्वं पर्यहरः समीचीनम्. हा अपि इदानीं वंशीसुधा भगिनी मध्यमपुरुषे द्विवचने
आं महोदय मध्यमपुरुषे द्विवचने महोदय युवां पर्यहरतं
पर्यहरतं समीचीनं. शीतल भगिनी बहुवचने मध्यमपुरुषे
आं महोदय यूयं पर्यहरत
पर्यहरत समीचीनं. हा इदानीं जयन्त महोदय
अहम् अहं पर्यहरम्
हा पर्यहरं समीचीनं. हा मधुसूदन महोदय द्विवचने आवां पर्यहराव हा समीचीनं. शैलजा भगिनी
वयं पर्यहराम
हा वयं पर्यहराम समीचीनं.
परिहरति इत्युक्ते किं
परिहरति हा तत्र साल्व् इति परिहारं परिहारं साल्व् इति मन्ये.
कवी परिहरत् इत्युक्ते
कविः साल्व्स् पोयेट् साल्व्स्
किं
न जानीमः न वाक्ये नास्ति भगिनि हा प्रायशः स किमपि काव्यं रचितुम् इष्टवान् किन्तु तत् समस्या आसीत् तस्य परिहारः न ज्ञातवान् इदानीं सः परिहारं किम् इति ज्ञातवान्. प्रश्नः समीचीनं भगिनि हा केवलं वाक्ये नासीत् इति तावदेव परिहरति इति अस्तु. अग्रे प्रभवति इति तद् पश्यामः तदपि तादृश एव रूपमस्ति प्रभवति तत्र. हा मधुसूदन महोदय तत्र किं किं कुर्मः हा नदी नदी प्रभवति केवलम् एकवचने नदी प्रभवति इदानीं तस्य लङ्लकरूपं किमस्ति प्रयोगः भवति भवति इति किं भवति
अभवत्
अभवत् इदानीं प्रयोगः अभवत् न प्रयोगः अभवत् प्राभवत् प्राभवत् इदानीं नदी नदी प्राभवत् समीचीनं महोदय अस्तु. इदानीं शैलजा भगिनी द्विवचने
नद्यौ प्राभवताम्
नद्यौ प्राभवताम् समीचीनम् हा वंशी सुधा भगिनी बहुवचने
नद्यः प्राभवन्
हा नद्यः प्राभवन् हा समीचीनम् शुभा भगिनी मध्यमपुरुषे एकवचने
अहं प्राभवः
मध्यमपुरुषे
त्वं
प्राभवः समीचीनम् उषा भगिनी द्विवचने युवां प्राभवतम् समीचीनं रघुपति महोदय बहुवचने मध्यमपुरुषे
यूयं प्राभवत
प्राभवत समीचीनं शोभा भगिनी उत्तमपुरुषे एकवचने
अहं प्राभवम्
समीचीनं जयन्त महोदय द्विवचने
आवां प्राभवाव
प्राभवाव शीतल भगिनी बहुवचने
वयं प्राभवाम
वयं प्राभवाम समीचीनं हा अस्तु इदानीं तत्र वीथरति इति अस्ति हा तत्र ओ अनुवदति अपि अस्ति अस्तु गीताञ्जलि भगिनी अस्ति वा इदानीं
आं महोदय क्षम्यतां
चिन्ता मास्तु भगिनी अस्तु तत्र अनुवदति गुरुः अनुवदति गुरुः अनुवदति तस्य लङ्लकरणं भगिनी
गुरुः अन्ववदत्
अन्ववदत् समीचीनं भगिनी अस्तु अन्ववदत् अन्ववदत् अस्तु द्विवारं समीचीनम् अस्तु शुभा भगिनी द्विवचने
गुरु अन्ववदताम्
अन्ववदतां समीचीनं हा रघुपति महोदय बहुवचने
गुरवः अन्ववदन्
अन्ववदन् समीचीनं हा अस्तु इदानीं शैलजा भगिनी मध्यमपुरुषे एकवचने
त्वम् अन्ववदः
त्वम् अन्ववदः समीचीनं शीतल भगिनी मध्यमपुरुषे द्विवचने अन्ववदतं समीचीनं वंशीसुधा भगिनी बहुवचने
यूयम् अन्ववदत्
अन्ववदत
वन्वदत
अन्ववदत हा अन्ववदत समीचीनं हा शोभा भगिनी उत्तमपुरुषे एकवचने
अहम् अन्ववदम्
हा समीचीनं शुभा भगिनी
अहं कृतवती
अस्तु अस्तु हा कः न कृतवान् मधुसूदन महोदय हा हा वदतु महोदय हा आवाम्
आवाम् अन्ववदाव
अन्ववदावः अन्ववदावः
वयम् अन्ववदाम
वयम् अन्ववदाम समीचीनं हा अस्तु इदानीं तत्र रूपं सर्वैः ज्ञातम् इति मन्ये खलु सर्वे इदानीं कर्तुं शक्नुवन्ति इति मन्ये इदानीम् अस्तु तत्र उपसर्गाः के सन्ति इति एकवारं तत्र पश्यामः एतावत् वयं किं किं कः कान् उपसर्गान् दृष्टवन्तः आ इति आसीत् उत् इति आसीत् अनु वि नि प्र परि अव अदि उप सं निस् परा अप् अप अभि इति तत्र द्वाविंशतिः उपसर्गाः सन्ति तत्र पुटसङ्ख्या 93 अधोभागे कोष्टकं दत्तमस्ति तत्र तत्र सर्वैः क्रियापदैः सर्वैः उपसर्गान् नियोजितुं शक्नुमः इति तादृशः कोऽपि नियमः नास्ति तत्र केवलं दृष्ट्वा एव वक्तुं शक्नुमः अस्तु एतत् क्रियापदस्य आरम्भे एषः उपसर्गः भवति इति केवलं दृष्ट्वा एव वक्तुं शक्नुमः सर्वदा अस्तु एतत् क्रियापदं स्वीकरोमि अपि एतत् उपसर्गः तत्र स्थापयामि इति कर्तुं शक्नुमः किन्तु तस्य अर्थः तद् प्रसिद्ध तत् सर्वे अङ्गीकुर्वन्ति न वा इति तत्र किञ्चित् क्लेशः भवति. किन्तु तत्र उपसर्गाः द्वाविंशतिः एव सन्ति. तत्र इदानीं वयम् उदाहरणानि दृष्टवन्तः. तत्र उपसर्ग अस्ति चेत् क्रियापदस्य अर्थः कथं तस्य अर्थस्य परिवर्तनं भवति न वा इति तत्र नियमाः सन्ति. तद् गतवर्गे अपि एकवारं पठितवन्तः, किन्तु अद्य अपि एकवारं पठामः. किन्तु तस्य पूर्वं तत्र वयं केवलं सामान्यरूपं तस्य अभ्यासं कर्तुम् इच्छामः. तत्र किन्तु तत्रापि तत्र एतद् वक्तव्यमस्ति, तत्र उपसर्गतुल्यः पदाः अपि सन्ति. तद् तत्र अग्रिमपुटे पेज् 94 तत्र उपरि भागे तद् दत्तमस्ति. तत्र कः जयन्त् महोदय तत्र पठति वा? तत्र पेज् 94 उपरि ख इति.
क्षम्यतां महोदय, एकः प्रश्नः. क्षम्यतां महोदय, त्रिनवतिः तमे पुटे यतो कोष्टकम् अस्ति अधोभागे, तत्र द्वाविंशति उपसर्गाणि सन्ति, परन्तु आङ् इति अस्ति. आङ् इति आ इति उपसर्गः महोदय,
तदेव आ इति मन्ये भगिनि. सत्यम्
इति संज्ञा भवति वा महोदय? अहं न जानामि किमर्थम् आङ् इति अस्ति आ इति अस्ति उपसर्ग. हा, परन्तु सर्वे अपि उपसर्गाः किमपि संज्ञा न भवति, किमर्थम् आङ् इति भवति इति अहं चिन्तयामि.
किम् उक्तवती भगिनी?
अनुनासिकवर्णः
इति कृत्वा तत् किं भवति? इत्संज्ञा भवति वा
तस्य? इत्संज्ञा भवति अहं चिन्तयामि, परन्तु किमर्थम् आङ् इति अस्ति, आ इति किमर्थं नास्ति? यतोहि सर्वे उपसर्गा प्रा परा
किन्तु सत्यं भगिनि. किन्तु शैलजा भगिनि, तत्र वंशीसुधा भगिन्याः प्रश्नः एषः अस्ति इति मन्ये. तत्र किमर्थम् उपसर्गस्य रूपं किमर्थम् आ केवलम् आ इति नास्ति, तत्र इत्संज्ञा किमर्थं तत्र स्थापनीयम् इति?
तदेव मम प्रश्नः.
आ इति अस्ति चेत् तदेव पर्याप्तं खलु, किमर्थम् आङ् इति अस्ति इति?
एकनवति पुटे महोदय केवल आ दत्तम्.
तदर्थं तदर्थमेव प्रश्नः. तत्र इदस्ति अतः तद् गच्छति, तावदेव वक्तुं शक्नुमः.
किमपि प्रयोजनं भवेत्
प्रयोजनं प्रायशः तत्र अन्ये
योजितवान् पाणिनि
महोदय, जानाति चेत् वदतु महोदय.
यदि कोऽपि जानाति चेत् वदन्तु. शैलजा भगिनी किञ्चित् तत्र दृष्ट्वा वदतु यदि जानाति चेत्. अस्तु
महोदय, धन्यवादः महोदय.
अस्तु अस्तु तर्हि इदानीं तत्र
एकः प्रश्नः. उपसर्गाणि तत्र सन्ति, किन्तु उपसर्गानाम् अर्थाः
तत्र तदेव तत्र सर्वदा ये तत्र किम् एषः उपसर्ग एतस्य उपसर्गस्य अर्थः एषः एव इति किमपि नास्ति. तत्र साधारण परिवर्तनं कीदृशम् इति वक्तुं शक्नुमः. तत् तत्र किं तत्र अनु अस्ति चेत् एतत् प्रायशः सर्वे जानन्ति. अनु अस्ति चेत् किं भवति? अनु उपसर्गः कीदृशं? फालो इति भवति. तत्र अनु अस्ति चेत् फालो इति भवति, अपि आ इति अस्ति चेत् किं भवति, रिवर्स् भवति, तादृश तत्र किञ्चित् किञ्चित् बि अपि रिवर्सल् इति तादृशं वक्तुं ज्ञानं विज्ञानं तत् सम् इति इत्युक्ते साधारणतया टुगेदर् अथवा वेल् डन् इति तादृश अर्थे भवति, संस्कृतम् इति अस्ति
परिहरति
तत्र तत्र एष एतस्य उपसर्गस्य अर्थः एतदेव एतदेव करोति इति सर्वदा एतादृशसामान्य तत्र किमपि नास्ति महोदय वेणुगोपाल् महोदय. तत्र सुलभनियमः नास्ति तत्र, केवलम् अस्तु एतत् उपसर्गः अस्ति चेत् एतदेव भवति इति किमपि वयं न वक्तुं शक्नुमः. किन्तु केचन नियमाः सन्ति, तद् इदानीं पश्यामः कीदृशपरिवर्तनं भवति धातोः अर्थस्य इति. किन्तु तस्य पूर्वम् उपसर्गतुल्याः इति तदपि ते अपि सन्ति तत्र. जयन्त् महोदय पठति वा तत्र?
अलं बहिः अन्तर् इत्यादः उपसर्गतुल्याः एव उपसर्गतुल्याः इत्यादयः उपसर्गतुल्याः एव भवन्ति. यथा अलं योगः करोति अलङ्करोति, बहिः योगः करोति बहिष्करोति, अन्तर् योग भवति अन्तर्भवति, अन्तर्योगवसति अन्तर्वसति.
अत्र आशयः कः, तत्र अलं बहिष् अन्तर् इति तद् उपसर्गः, ते तु उपसर्गः न सन्ति किन्तु उपसर्गतुल्याः. उपसर्गतुल्याः इत्युक्ते किम्?
Comparison to उपसर्ग, equivalent.
Equivalent to उपसर्ग. वदतु भगिनि.
Similar.
हा similar, तुल्याः. उपसर्गतुल्याः इत्युक्ते तत्र तस्य योजनं भवति चेत् धातोः आरम्भे अलं तस्य योजनं भवति अथवा बहिस् अथवा अन्तर् इति योगः भवति चेत् तस्य लङ्लकारूपमपि यद् यः नियमः अस्ति उपसर्गसहितक्रियापदस्य लङ्लकारूपस्य नियमः सः एव नियमः अत्र अपि भवति. अतः अन्तर्वसति इति तस्य लङ्लकारूपं कर्तुम् इच्छामः चेत् किं भवति, वसति इति स्थाने अवसत् इति भवति, तदनन्तरम् अन्तर् अवसत् अन्तरावसत् इति तादृशरूपं भवति. तादृश तत्र उपसर्गतुल्याः इति.
इदानीं
अन्तरावसत् अवसत् अवसत् क्षम्यताम् अन्तरावसत् अर् इति अस्ति, क्षम्यतां मम दोषः. अपि अग्रे तत्र
एकः प्रश्नः, अलं योगः करोति, अलम् इत्युक्ते इनफ् परन्तु अलङ्करोति इत्युक्ते
सत्यं भगिनि. अतः एव वदामि तत्र उपसर्गः अर्थभिन्न भवति. तत्र क्रियापदस्य अपि एषः उपसर्गस्य तयोः मध्ये नूतनपदं कृतं किन्तु तस्य अर्थभेदः एतदेव एषः एव अर्थः इति वयं न वक्तुं शक्नुमः.
अन्य लकार अपि स्वीकरोति वा?
सर्वे सर्वत्र सर्वत्र एतदेव एषः एव नियमः, लङ्लकारे लोट्लकारे सर्वत्र तत् एषः एव नियमः.
अस्तु
अस्तु. इदानीं तत्र शैलजा भगिनी अग्रिमं पठति वा? तत्रैव पेज् 94 अग्रिमम् इदानीम् उपसर्गतुल्याः इति त्रयं दत्तम् इदानीम् अग्रिमं तत्र ग इति अस्ति खलु ग स्वी उष्णी इति पेज् 94
स्थानं न प्राप्तवती
तत्र भगिनि तत्र इदानीं 94 पुटसङ्ख्या 94
स्वी उष्णे
उपरि अस्ति तत्र तदनन्तरम् अग्रिमम् अग्रिमं
स्वीकरोति स्वीयोगः करोति स्वीकरोति उष्णीयोगः करोति उष्णीकरोति सज्जीयोगः करोति सज्जीकरोति
हा तत्र तस्य उपरि रक्तवर्णे यदस्ति तद् एकवारं पठतु
उष्णी सज्जी इत्यादयः अपि उपसर्गतुल्याः सन्ति
हा अस्तु इदानीम् अतः अलं बहिस् अन्तर् स्वी उष्णी
सज्जी
सज्जी तत्र अपि
उपसर्गतुल्याः
एव अस्ति अतः लङ्लकाररूपं कार्ये तत्र सः एव नियमः स्वीकरोति इति तत्र करोति इति लङ्लकाररूपं किं भवति
अकरोत्
अकरोत् इदानीं स्वीयोगः अकरोत्
स्व्यकरोत्
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 स्व्यकरोत् इति भवति तदेव सः एव नियमः अत्र स्वीयोगः करोति करोति इति अस्ति तस्य लङ्लकाररूपं प्रथमतया करोतु तदनन्तरं स्वी इति आरम्भे स्थापयतु इति अस्तु इदानीम् अग्रे तत्र नियमः तत्र सन्ति उपसर्गनियमाः इति तत्र शोभा भगिनी पठति वा तत्र
आम् महोदय उपसर्गनियमाः उपसर्गः धातोः पूर्वं भवति यथा आयोगः गच्छति आगच्छति
इत्युक्ते किं भगिनि उपसर्गधातोः पूर्वं भवति इत्युक्ते
तत्र धातुः गच्छति तस्य क्रियापदं गच्छति अस्ति यतः गम् धातुः गच्छति इत्यस्मिन् अस्ति तस्य पूर्वम् उपसर्ग आ इति आगच्छति
तत्र आ इति उपसर्ग अस्ति तत् कुत्र स्थापयामः क्रियापदे
क्रियापदे
स्थापयामः मध्ये स्थापयामः अथवा आरम्भे एव
स्थापयामः
आरम्भे एव भवति आरम्भे एव उपसर्गः सर्वदा आरम्भे एव धातोः पूर्वं धातोः अनन्तरं न धातोः पूर्वमेव भवति समीचीनं भगिनि हा समीचीनं भगिनि अस्तु अग्रे तत्र वंशीसुधा भगिनी अग्रिमं पठति वा
आम् महोदय उपसर्गेन कदाचित् धातोः अर्थः परिवर्तते यथा स्मरति विस्मरति गच्छति आगच्छति पद्यते प्रपद्यते
हा इति तत्र तत्र स्मरति विस्मरति इति तत्र भेदः अस्ति खलु अतः बि अतः बि इति उपसर्गेण अर्थभेदः भवति अर्थस्य परिवर्तनम् अभवत् तत्र अतः तत्र उपसर्गेण कदाचित् कदाचित् इति अस्ति तत्र कदाचित् धातोः अर्थः परिवर्तते कदाचित् इत्युक्ते किम्
सर्वदा न
सर्वदा न तत्र कदाचित् सः एव अर्थः भवति कदाचित् अर्थ परिवर्तनं भवति इति समीचीनम् अस्तु अग्रे
महोदय पद्यते अपि च प्रपद्यते किमर्थं महोदय
कोऽपि वदति वा भेदः कः तत्र
भेदः कः
उच्चैः वदतु महोदय प्रपद्यते पद्यते
फॉलो अपॉन
ऑब्जर्व
किमस्ति
ऑब्जर्व इति अस्ति
तत्र प्रपद्यते
शरणं प्रपद्यते
हा इति इति तदेव मम मनसि अपि आसीत् शरण्यं शरणं प्रपद्ये इति
अप्रोच् इति
अस्तु तत्र भेदः अस्ति इति मन्ये तत्र तत्र अन्यत् अन्यत् किं वयं जानीमः तत्र पठति प्रपठति इति तत्र पठति इत्युक्ते रीड् इति प्रपठति इत्युक्ते रीड् अलौड् इति अस्ति अपि तत्र किं अपि हा तत्र किं अन्यत् हा जानाति इति किम् अस्ति नो इति
विद्धि
हा किन्तु अभिजानाति इति किम् अस्ति
सम्यक् जानाति
न अभिजानाति इति इत्युक्ते रेकग्नैस् इति अभिज्ञानम् तद् बहु प्रसिद्धपदमस्ति कश्मीरी शैविज़म् मध्ये प्रत्यभिज्ञासूत्रम् इति अस्ति अभिज्ञा आत्म अभिज्ञा इति तत्र हा अभिज्ञानशाकुन्तला शाकुन्तला शाकुन्तलायाः अभिज्ञानं समीचीनं महोदय हा तत्र अपि भवानेव उक्तवान् खलु हरति इति अस्ति चेत् तत्र आहारम् आहरति विहरति हा तत्र उपसर्गेन बहु किं किमपि तस्य अर्थपरिवर्तनं भवति
संहारति
हा संहरति इति हा अस्तु
विहारति
हा विहारति हा अतः बहु किमपि कर्तुं शक्नुमः तत्र उपसर्गेन अस्तु अग्रिम नियमः तत्र गीताञ्जलि भगिनी अग्रिमं पठति वा तत्र
आं महोदय उपसर्गनियमः कदाचित् कदाचित् उपसर्गः धातोः अर्थस्य पोषणं करोति यथा शोभते सुशोभते लिखति विलिखति आरभते प्रारभते चरति सञ्चरति जायते सञ्जायते
तत्र पोषणम् अर्थस्य पोषणम् इत्युक्ते अर्थभेदः परिवर्तनं न भवति सः एव अर्थः किन्तु एम्फसिस् इति तादृशरूपम्
एन्हान्स्
इति तादृशं हा तादृशं भवति हा तादृशं भवति अत्र लिखति विलिखति समानार्थः परिवर्तनं नास्ति तत्र अस्तु अग्रे तत्र रघुपतिमहोदय अग्रिमं तत्र कदाचित्
कदाचित् उपसर्गः धातोः अर्थस्य पोषणं भवति अनन्तरं वा कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति यथा
द्वित्राः प्रति
द्वि अव या त्रि त्रीणि
त्रयः उपसर्गाः
उपसर्गाः भवन्ति यथा प्रतियोग आयोग गच्छति प्रत्यागच्छति
तत्र त्रयः खलु त्रयः इति तस्य उदाहरणं
अति अस्तु पश्यामि कुत्र अस्ति संयोग उत योग आ योग हरति समुदाहरति इति
अतः हा द्वित्राः उपसर्गाः भवन्ति तत्र अस्तु हा अग्रे मधुसूदन महोदय अन्य अन्तिमनियमः अत्र अस्ति अग्रिमपुटे उपरि भागे
उपसर्गकारणतः कदाचित् परस्मैपदिधातुः आत्मनेपदिरूपं आत्मनेपदिधातुः परस्मैपदिरूपं च प्राप्नोति यथा योगः जयति परस्मैपदी विजयते
अत्र किम् अस्ति किं दत्तमस्ति जयति इति कीदृश धातुः परस्मैपदी धातुः खलु किन्तु वि इति उपसर्ग स्थापयामः चेत् विजयते इति आत्मनिपदि धातु भवति तत्र. वयं चिन्तयामः अतः किं भवति तत्र विजयति इति, तत्र प्रायशः वयं न एतत् न कृतवन्तः खलु. अस्मिन् वर्गे वयं विजयति इति तस्य कृतवन्तः वा न इति मन्ये. हा, यदि विजयति इति तस्य लङ्लकररूपं किं भवति? जयति इति अजयत्,
व्यजयत.
हा, किन्तु समीचीनं भगिनि. हा, विजयते इति आत्मनेपदी धातु अस्ति इति कृत्वा तत्र जयते इति स्वीकृत्य अजयत इति अपि तदनन्तर तस्य आरम्भे वि इति उपय तस्य तदपि स्थापयित्वा व्यजयत इति भवति. हा, तत्र परस्मैपदी धातोः तत्र विसर्गस्य स्थापनेन परस्मैपदी धातु तत्र आत्मनिपदी धातु अभवत्. अपि तत्र एतदपि उदाहरणं दत्तमस्ति, रमते इति आत्मनिपदी धातु अस्ति, तत्र वि इति स्थापयामश्चेत् वि रमते इति परस्मैपदी धातु अपि भवति. अतः विसर्गस्य योजनेन कदाचित् उपसर्गस्य योजनेन कदाचित् परस्मैपदी धातु आत्मनेपदी धातुरूपं धरति, अपि आत्मनेपदी धातुः परस्मैपदी रूपं प्राप्नोति.
यदि तादृशं भवति तर्हि नूतनधातुः आत्मनिपदित्वं प्राप्नोति चेत् सः धातुः उभयपति इति वयं
न वक्तुं शक्नुमः भगिनि. न न न न न न वक्तुं शक्नुमः. हा, किमर्थम् इत्युक्ते तत्र विजयते इति धातु तत्र तद् भिन्नक्रियापदमस्ति, जयति इति क्रियापदं भिन्नम् अस्ति. अतः अत्र यदि विजयति इति रूपम् अस्ति, अपि विजयते इति रूपम् अस्ति चेत् तत् उभयपदी धातु भवति. तत्र केवलं परिवर्तनं भवति इति सः एव विषयः अत्र. अस्तु तर्हि, बहु समीचीनम् अस्ति. वयं बहु किमपि कृतवन्तः. तत्र लङ्लकाररूपम् उपसर्ग अस्ति चेत् लङ्लकाररूपं कीदृशं भवति इति इदानीम् अद्य तस्य अभ्यासं कृतवन्तः. वयं केवलं परस्मैपदी धातूनाम् एव रूपं स्वीकृतवन्तः. आत्मनेपदी धातूनामपि अभ्यासं करणीयमस्ति. पश्यामः यदि तद् अग्रिमवर्गे कुर्मः न वा इति. तत्र अस्मिन् अध्याये बहु किमपि अस्ति. तत्र प्रायशः एकां कथां पठित्वा पुनः एतत् कुर्मः इति चिन्तयामि अहं. नो चेत् एतत् बहु किमपि अस्तु. तर्हि प्रश्नः अस्ति वा तत्र?
न महोदय.
अस्तु तर्हि, सर्वेभ्यो नमः. अग्रिमवर्गे मिलामः. नमस्कारः.
धन्यवादः.
नमस्कारः.
नमस्कारः महोदय. धन्यवादः.
नमस्कारः.